नमस्ते, आरभामहे। वाक्यकारं रुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। विसर्गसन्धीनाम् अध्ययनं क्रियमाणमासीत्। एते विषयाः पूर्वम् उक्ताः आसन्। सकारः, रेफः, विसर्गः इति पाणिनेः क्रमः। रेफः द्विविधः, स्वाभाविकः रेफः अपि वर्तते, सकारस्थानिकः रेफः अपि वर्तते। रेफस्य अति हसितपरे रेफस्य स्थाने कार्याणि भवन्ति, खरिपरे विसर्गस्य स्थाने कार्यं। तत्र किं परिवर्तनं जायते रेफस्य स्थाने इति उच्यमानमासीत्। अर् अकारात् परं रेफः इति वर्तते, तर्हि रेफस्य स्थाने उकारः, अकारात् परं रेफः, रेफात् परं ह्रस्वकारः, तदा रेफस्य स्थाने उकारः। एवम् अकारात् परं रेफः, ततः परम् अन्ये अच्वर्णाः ह्रस्व अकारं विहाय, तदा रेफस्य लोपः। अर् तस्मात् परं पुनः रेफः चेत् रेफस्य स्थाने उकारः। एवम् अन्येषु वर्णेषु, अन्येषु हश्वर्णेषु परेषु अपि रेफस्य स्थाने उकारः। ततः आकारात् परं रेफः, रेफात् परम् अच्वर्णः अथवा हश्वर्णः, यः कोऽपि भवतु रेफस्य लोपः। एतेषाम् उदाहरणानि अपि पूर्वं दर्शितानि। सम्प्रति अन्तिमं पश्यामः। इर् उर् इत्यादि एवञ्च अर् अकारात् परं रेफस्य कार्यमुक्तम्, आकारात् परं रेफः चेत् कार्यमुक्तम्, इकारात् परं रेफः, उकारात् परं रेफः इत्यादि इत्यनेन एकारात् परं रेफः, ऐकारात् परं रेफः सर्वेषां ग्रहणम्। एवं स्वाभाविकः रेफः चेदपि, पूर्वम् अर् आर् इत्यत्र स्वाभाविकरेफस्य ग्रहणं न भवति, अतः स्वाभाविकः रेफः अस्ति चेत् अर् इत्यादि स्वाभाविकरेफः अत्र न गृहीतः पूर्वं, सो इट् वास् नाट् इन्क्लूडेड् इन् द प्रीवियस् लैन्स् इन् प्रीवियस् रोस्, सो हियर् स्वाभाविकः रेफः अपि गृह्यते। एवञ्च किं कार्यम् इति चेत् किमपि न भवति, देर् आर् नो रूल्स्, सो नो चेञ्ज्, रेफस्य किमपि न भवति, अत्रापि किमपि न भवति। अत्र इफ् इट् इस् फालोड् बै अनदर् रेफ, तदा किं भवति, यदि अकारात् परं रेफः, अर् प्लस् रेफ, देन् रेफस्य लोप एण्ड् अकारस्य दीर्घ, इट् बिकम्स् आ। यदि दिस् इस् ओन्लि पासिबल् वित् स्वाभाविकरेफ, बिकास् इन् अदर् प्लेसस् इफ् इट् इस् अर् देन् रेफस्य स्थाने उ, रेफस्य लोपः इत्यादि भवति। स्वाभाविकः रेफ चेदेव अर् भवितुमर्हति अत्र। अर् अस्ति चेत् तदा रेफस्य लोपः, पूर्वस्य दीर्घः। एवम् इर् ह्रस्वैकारः, इर् आर् उर् अस्ति चेत् इट् केन् बि एनी रेफ, इवन् स्वाभाविक आर् अदर् रेफस् आर् आल्सो पासिबल्। इर् अस्ति चेत् रेफस्य लोपः, पूर्वस्य दीर्घः, सो बिकम्स् ई। उर् अस्ति चेत् रेफस्य लोपः, पूर्वस्य दीर्घः। ऐ विल् शो एक्साम्पल्स् फार् दिस्। देन् अदर् हश् लेटर्स्, रेफ रिमैन्स्, नो रूल्स् आर् अप्लिकेबल्। ओके, सो ऐ विल् शो एक्साम्पल्स् फार् दिस्। So, ir, ur, ityadi. It includes svabhavika repha also. Na kimapi. So for example, Shatrur Alpaha. Previously it was Shatrus because Shatruhu. Saka it is Ukaranta Shabda. So Puram Shatrus Ityasit. Shatrus. Tatasparam Sakarasya Sthane Repaha. Shatrur. Shatrur Alpaha. Shatrur Alpaha. Tatheiva Avashishyate. Kimapi Parivartanam na bhavati. Shatrur Alpaha. Anyair Anyatha. Anyair Anyatha. Atra api. Atra Rephat Puram Ai. Aikara Hasti. Anyair. Atahaeva Ityadi. Itirikitam. Ir Ur Ityadi. Atahaeva Atra Ir Ityadi. Itirikitam. It can be any letter before Repha. See, Anyair. Atra Aikara Hasti. Anyair Anyatha. Anyair Anyatha. Ahur Anuttamam. Ahur Anuttamam. Atra Ukarat Param Repha Vartate. Tasmat Param Makaraha. Ataha Kimapi Na Bhavati. Ahur Anuttamam. Sathur Agataha. Sathur Agataha. Sathur Agataha. Indriyair Eva. Indriyair Eva. Indriyair Eva. Bahireva. Binduriva. Bindur Iva. Binduriva. Nichair. Nichair Gachati. Gunair Vihinaha. Buddhir Janena. Buddhir Janena. Sarvatrapi Parivartanam Nasti. Repaha Tateva Avasishate. Varnanam Samipyam Kevalam. Evam Swabhavika Repaha. Udaharanartham Pratar Ityasti. Idam Avyayam Atra Repantameva Avyayam Pratar Iti. So Swabhavika Repasti. Pratar Atra Kimapi Na Bhavati. Pratar Atra Pratar Atra Parivartanam Nasti. Kevalam Atra Samipyameva Varnana. Pratar Atra. Evam Ikarat Param Repaha. Ukarat Param Repaha. Ityadi. Ityadi Tanena. Annesham. Annebhya Varnebhya Param Repaha. Yatha Aikarat Param Repaha Asti Atra. Evam Praha Swabhavikaha Repaha. Asmin Udaharane. Kimapi na bhavati. Repaha tatheva avashishyate. Asto. Iti puroktasya udaharanam. Annyadapi udaharanam darshaniyam. Yadi repaha vartate. Yadi repaha. Repaha paramasti. Ir ityasmat param repaha. Athava ur ityasmat param repaha. Athava ar. Ar ityasmat param repaha. Yadi evamasti. Tarhi kim bhavati. Sarvatrapi repasya lopaha bhavati. Purvasya varnasya dirghaha. Arthat akaraha vartate chet a ityam bhavati. Ikaraha asti chet e iti dirghaha bhavati. Ukaraha asti chet u iti dirghaha bhavati. Udaharanartham shishur roditi. Atra ukarat param repaha vartate. Tasmat param punaha anyaha repaha asti roditi. पुनः अन्यः रेफः वर्तते. अतः रेफस्य लोपः, अत्र रेफस्य लोपः कृतः. ततः उकारस्य दीर्घः शिशूरोदिति, शिशुर्रोदिति शिशूरोदिति इति रूपं, पूर्वस्य दीर्घः. हरिर्रम्यः, अत्र इकारात् परं रेफः वर्तते, तस्मात् परम् अन्यः रेफः अस्ति, अतः रेफस्य लोपः हरिरम्यः. ततः पूर्वस्य दीर्घः हरीरम्यः. पुनर्रमते, पुनर् इति रेफान्तम् अव्ययम्, अतः अर् इत्यस्य उदाहरणम्. अत्र अकारात् परं रेफः वर्तते, रेफात् परम् अन्यः रेफः अस्ति, अतः आदौ रेफस्य लोपः, ततः पूर्वस्य दीर्घः, पुना रमते. अन्तर्राष्ट्रियम्, अत्र अकारात् परं रेफः अस्ति, अतः रेफस्य लोपः, पूर्वस्य दीर्घः, अन्ताराष्ट्रियम् इत्येवम् अर् इत्यनेन सर्वदापि स्वाभाविकरेफस्य ग्रहणम्. एवम् अकारात् परं रेफः अथवा इर्, अत्र यः कोऽपि रेफः भवितुमर्हति. एवम् उर्, एतस्मात् अन्यः रेफः यदि वर्तते तर्हि रेफस्य लोपः पूर्वस्य दीर्घः इति नियमः. आफ्टर् द संधि अप्लिकेशन् डस् इट् बिकम् अ सिङ्गल् वर्ड् इति प्रश्नः अस्ति. It depends. If there is samasa, then it becomes single word. If there is no samasa, then obviously there are two words, different words. It's not compulsory to be a single word. Okay, just a minute. Okay. What is the meaning of Shishu Roditi? Shishu, you know, Balaha, Lahu Balaha, Shishu iti gatchate. Roditi cries. Shishu Roditi. Rodana is crying. ओके अस्तु. सो प्रायः इदानीं तत्र ज्ञातं स्यात् अन्तिमम् अत्र एतस्य अंशस्य विवरणं मया कृतम्, एतस्य उदाहरणानि अस्माभिः दृष्टानि. अत्र रेफस्य किमपि न भवति, अत्रापि रेफस्य किमपि न भवति. रेफः यदि परः तर्हि रेफस्य लोपः पूर्वस्य वर्णस्य ह्रस्वकारस्य अथवा ह्रस्वैकारस्य ह्रस्वौकारस्य च दीर्घः. अन्येषु हश्वर्णेषु परेषु अपि किमपि न भवति इति एतस्य उदाहरणानि अस्माभिः दृष्टानि. एवञ्च एतावता अचिपरे हसिपरे च कानि कार्याणि भवन्ति इति अस्माभिः ज्ञातम्. अचिपरे कानि कार्याणि, हसिपरे कानि कार्याणि. अचि हसितपरे रेफस्य स्थाने कार्यं भवति इति मया उक्तं. तस्य उदाहरणानि च दृष्टानि. इतः परं खरिपरे कानि कार्याणि भवन्ति इति पश्यामः. खरिपरे विसर्गस्य स्थाने कार्यं भवति, अर्थात् रेफस्य स्थाने विसर्गः, विसर्गस्य स्थाने कार्याणि भवन्ति खरिपरे. कानि कार्याणि भवन्ति इति चेत् चित्रं किञ्चित् दर्शयिष्यामि. खरिपरे कार्याणि, अत्र खरिपरे कानि कार्याणि भवन्ति इति लिखितं वर्तते. खर् प्रत्याहारे के वर्णाः अन्तर्भवन्ति? खर् खतः आरभ्य ख फ छ ठ थ चटतौ कपै छ ष सर् एवञ्च वर्गस्य प्रथमः वर्णः, द्वितीयः वर्णः, पुनः ष ष स, एते त्रयः वर्णाः एते खर् प्रत्याहारे अन्तर्भवन्ति. अन्ये सर्वेपि हश् प्रत्याहारे वर्तन्ते. तत्र अत्र अह इति लिखितम् अकारात् परं विसर्गः, आह आकारात् परं विसर्गः, अन्ये वर्णाः अन्येभ्यः वर्णेभ्यः परं विसर्गः. इच् नाम इकारादारभ्य अन्ये वर्णाः, अन्ये सर्वेपि स्वरवर्णाः, तेभ्यः विसर्गः. कानि कार्याणि भवन्ति यदि अत्र ककारे खकारे च परे, ककारे खकारे च परे विसर्गस्य विकल्पेन जिह्वामूलीयः भवति. इदं जिह्वामूलीयस्य चिह्नं, जिह्वामूलीयः भवति पक्षे विसर्गः एव. ककारे खकारे च परे विसर्गस्य स्थाने विकल्पेन जिह्वामूलीयः भवति पक्षे विसर्गः एव. उदाहरणार्थं काकः कृष्णः, काकः कृष्णः, अत्र अकारात् परं विसर्गः अस्ति, विसर्गात् परम् अन्यः ककारः वर्तते, अतः पक्षे जिह्वामूलीयः, अर्थात् काकः कृष्णः, काकः कृष्णः, उच्चारणे भेदः, काकः कृष्णः इति रूपम् अथवा विसर्गः एव काकः कृष्णः इत्येवम्. एवं पकारे अथवा फकारे परे अका यः कोऽपि वर्णः भवतु, एवञ्च अत्र एवं पृथक्करणस्य अपेक्षा अत्र नास्ति. पूर्वं एवं विभागः कृतः अतः तथैव लिखितमस्ति. वस्तुतः एनि अच् यः कोऽपि अच्वर्णः, अच्वर्णात् परं विसर्गः, अच्वर्णात् परं विसर्गः, सर्वत्रापि समाननियमः वर्तते. किमर्थम् अह आह इच् इति लिखितं? पूर्वस्मिन् चित्रे तथा लिखितमासीत् तथैव अत्रापि लिखितमस्ति. वस्तुतः अयं विभागः अपि न अपेक्षितः. एवञ्च अच्वर्णात् परं विसर्गः, विसर्गात् परं पकारः अथवा फकारः यदि वर्तते तर्हि उपध्मानीयः भवति. उपध्मानीयः विकल्पेन पक्षे उपध्मानीयः, पक्षे विसर्गः. उदाहरणार्थम् इदमेव उदाहरणं भवितुमर्हति. काकः पिबति, काकः पिबति, अत्र अकारात् परं विसर्गः वर्तते, विसर्गात् परं पकारः वर्तते, अतः पक्षे उपध्मानीयः काकः पिबति ಉಚ್ಚಾರಣೆ ವಿಶೇಷ. ಕಾಕ ಪಿಬತಿ ಪಕ್ಷೇ ವಿಸರ್ಗ ಇವ ಕಾಕ ಪಿಬತಿ ಇತ್ಯೇವ. ಅಯಂ ಉಪಧ್ವಾನೀಯ ಅಯಂ ಜಿಹ್ವಾಮೂಲೀಯ. ಲೇಖನೆ ಸಾಮ್ಯಮಸ್ತಿ, ಕಿಂತು ಉಚ್ಚಾರಣೆ ಭೇದ. ಉಪಧ್ವಾನೀಯ ಜಿಹ್ವಾಮೂಲೀಯ. ತೃತೀಯಂ ಸರ್ವೇಷಾಂ ಉದಾಹರಣಾಂ ದರ್ಶಯಾಮಿ ಪುನಃ. ಚ ಟ ತ ಛ ಠ ಛ ಏತೇಷು ವರ್ಣೇಷು ಪರೇಷು. ಅಚಃ ವಿಸರ್ಗ ವಿಸರ್ಗಾತ್ ಇದು ಏತೇ ವರ್ಣಾಃ ವರ್ತಂತೆ. ತರ್ಹಿ ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ನಿತ್ಯಂ ಸಕಾರಃ ಭವತಿ. ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ. ಎದಸ್ಯ ಉದಾಹರಣಂ ದರ್ಶಯಾಮಿ. ಏವಂ ಸ ಷ ಸ ಅನ್ಯೇ ವರ್ಣಾ ಅವಶಿಷ್ಟಾ ತ್ರಯಃ ವರ್ಣಾ ಏತೇಷು ಪರೇಷು ವಿಕಲ್ಪೇನ ಸಕಾರಃ. ಪಕ್ಷೇ ವಿಸರ್ಗಃ ಏವ ಪಕ್ಷೇ ಸಕಾರಃ ವಿಕಲ್ಪೇನ ಸಕಾರಃ. ಏವಂ ಚ ಅತ್ರ ನಿತ್ಯಂ ಸಕಾರಃ ಅತ್ರ ವಿಕಲ್ಪೇನ ಸಕಾರಃ ಇತಿ ಭೇದಃ. ಏತೇಷಾಂ ಉದಾಹರಣಾನಿ ದರ್ಶಯಾಮಿ. ಕ ಖ ಪ ಫ ಎತೇಷು ಪರೇಷು ಕಾಕ ಕೃಷ್ಣ ಕಾಕ ಕೃಷ್ಣ ಅಥವಾ ಕಾಕ ಕೃಷ್ಣ. ಬಾಲಕ ಪಠತಿ ಬಾಲಕ ಪಠತಿ ಬಾಲಕ ಪಠತಿ ಬಾಲಕ. ಚ ಛ ಟ ಠ ತ ಥ ಎತೇಷು ವರ್ಣೇಷು ಪರೇಷು ಬಾಲ ತರತಿ. ವಿಸರ್ಗಸ್ಯ ಅತ್ರ ತಕಾರಃ ವರ್ತತೆ, ಅತಃ ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ಬಾಲಸ್ತರತಿ. ಮನಃ ಚಂಚಲಂ ಅತ್ರ ಚಕಾರಃ ವರ್ತತೆ, ಅತಃ ಕಿಂ ಭವತಿ ಅದು ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ಮನಸ್ ಚಂಚಲಂ. ಇದಾನೀಂ ಸಕಾರಾತ್ ಪರಂ ಚಕಾರಃ ವರ್ತತೆ. ಅಸ್ಮಾಭಿಃ ಪೂರ್ವಂ ಅಧೀತಂ ಹಲಸಂಧಿ ಪ್ರಕರಣೆ ಸ್ತೋಃ ಸ್ತುನಾಶ್ಚುಃ ಇತಿ ಸ್ತುತ್ವಂ ಸ್ತೋಃ ಸ್ತುನಾಶ್ಚುಃ ಇತಿ ಸೂತ್ರಂ ಅಧೀತಂ. ಸಕಾರಾತ್ ಪರಂ ಇತಿ ಚಕಾರಃ ವರ್ತತೆ ತರ್ಹಿ ಸಕಾರಸ್ಯ ಸ್ಥಾನೆ ಷಕಾರಃ ಭವತಿ ಸ್ತುತ್ವಸಂಧಿಃ. ಅತಃ ಸಕಾರಸ್ಯ ಸ್ಥಾನೆ ಶಕಾರಃ ತಸ್ಮಾತ್ ಮನಶ್ಚಂಚಲಂ ಮನಶ್ಚಂಚಲಂ ಇತಿ ರೂಪಂ. ತೃತೀಯಂ ಉದಾಹರಣಂ ಅತ್ರ ಟಕಾರಃ ಅಸ್ತಿ ಡಯಮಾನಃ ಟಿಟ್ಟಿಭಾಃ. ಟಿಟ್ಟಿಭಾಃ ಪಕ್ಷಿ ವಿಶೇಷಃ type of birds. ಡಯಮಾನಃ ಟಿಟ್ಟಿಭಾಃ ಅದು ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ಡಯಮಾನಾಸ್ ಟಿಟ್ಟಿಭಾಃ. ಅತ್ರಾಪಿ ಷ್ಟುತ್ವಸಂಧಿಃ ಭವತಿ ಷ್ಟುನಾ ಷ್ಟುಃ ಸ್ತೋಃ. ಅತ್ರ ಸಕಾರಃ ವರ್ತತೆ, ಸಕಾರಾತ್ ಪರಂ ಟಕಾರಃ ಅಸ್ತಿ, ಅತಃ ಸಕಾರಸ್ಯ ಸ್ಥಾನೆ ಷಕಾರಃ ಮೂರ್ಧನ್ಯ ಶಕಾರಃ ಮೂರ್ಧನ್ಯಃ. ಏವಂಚ ಡಯಮಾನಾಷ್ಟಿಟ್ಟಿಭಾಃ ಅತ್ರ ಸ್ತುತ್ವಸಂಧಿಃ ಸ್ತುತ್ವಂ ಅತ್ರ ಸ್ತುತ್ವಂ. ಅತ್ರ ಕಿಮಪಿ ನಾಸ್ತಿ ಬಾಲಸ್ತರತಿ, ಕೇವಲಂ ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ಏವ. ಏವಂಚ ತಕಾರೇ ಥಕಾರೇ ಚ ಪರೇ ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ತತಃ ಕಿಮಪಿ ನಾಸ್ತಿ ತತ್ರೈವ ಸಮಾಪ್ಯತೆ. ಕಿಂತು ತಕಾರೇ ಥಕಾರೇ ಚ ಪರೇ ತಕಾರೇ ಥಕಾರೇ ಚ ಪರೇ ವಿಸರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಸಕಾರಃ ತತಃ ಸ್ತುತ್ವಂ भवति एवं टकारे ठकारे च परे विसर्गस्य स्थाने सकारः ततः ष्टुत्वम् इति क्रमः अस्तु शु शु सु एतेषु परेषु उदाहरणानि श्वेतः शङ्खः अत्र विसर्गस्य स्थाने आदौ सकारः श्वेतशङ्खः ततः विकल्पेन अयं सकारः विकल्पेन किन्तु विसर्ग अत्र सकारात् परं शकारः वर्तते तस्मात् पुनः स्तुत्वं प्रवर्तते अतः श्वेतशङ्खः सकारः विकल्पेन इत्यतः विसर्गः एव विसर्गस्य स्थाने विसर्गः श्वेतः शङ्खः श्वेतशङ्खः अथवा श्वेतः शङ्खः अत्रापि स्तुत्वं पक्षे बालः षष्ठः विसर्गात् परं षकारः मूर्धन्यः षकारः विसर्गस्य स्थाने विकल्पेन सकारः भवति सकारात् परं षकारः वर्तते इति कारणात् अत्र ष्टुत्वं प्रवर्तते ष्टुत्वं एवञ्च बालषष्ठः सकारस्य ष्टुत्वं पक्षे विसर्गः एव बालः षष्ठः अत्र मनः सहते मनस् विसर्गस्य स्थाने सकारः मनस् सहते मनस्सहते मनः सहते अत्र किमपि न भवति स्तुत्वं ष्टुत्वं किमपि नास्ति एवञ्च षकारे परे स्तुत्वं प्रवर्तते षकारे परे ष्टुत्वं सकारे परे न किमपि इति व्यवस्था अस्तु प्रायः अत्र प्रश्नाः सन्ति वै नाट् से शिशुः रोदिति शिशुः रोदिति इति वक्तुं शक्यते अत्र सन्धिः नास्ति एव यदि सन्धिं कर्तुम् इच्छति तर्हि शिशुः रोदिति इति वक्तव्यम् किन्तु एकं पदं न सन्धिः कृतः इति कारणात् एकं पदं न पदद्वयमेव किन्तु सन्धिः अस्ति सन्धिः अत्र सामीप्यं वर्णानां सामीप्यं संहिता सन्धिः वर्तते यदि सन्धिः न इष्टः तर्हि शिशुः रोदिति इति प्रयोगः भवति एव यथा सर्वत्र भवति एव भवत्येव यदि सन्धिः इष्टः भवत्येव इति रूपं यदि सन्धिः न इष्टः भवति एव इति रूपम् एवं सर्वत्रापि समासः चेदेव सन्धिः नित्यः शिशुः रोदिति समस्तपदं तु नास्ति अतः सन्धिः करणीयः एव इति नियमः नास्ति अस्तु विसर्गः एव अस्ति चेत् सन्धिः न भवति वा कुत्र विसर्गः एव कदापि विसर्गः एव न भवति अन्येन वर्णेन सह एव विसर्गः भवति अतः केवलः विसर्गः न भवति वै इस् इट् नमः प्लस् करोति नमस्करोति ओके उत्तमः प्रश्नः सो अहम् उक्तवान् अत्र ककारे परे पक्षे विसर्गः पक्षे जिह्वामूलीयः इति मया उक्तम् एवञ्च नमः किन्तु नमः करोति इत्यत्र अस्य नियमस्य अन्वयः नास्ति నమస్కరోతి ఇది రూపం భవతి. కిమర్థం ఇది చేత్ ఏతస్య నియమస్య, అత్ర కించిత్ సూత్రమస్తి కుప్పో కః పౌచ ఇది సూత్రం. ఏన సూత్రేణ జిహ్వామూలీయ ఉపధ్మానీయ వా ప్రవర్తతే, కుప్పో ఇది ఆరభ్యతే. కుప్పో కః పౌచ ఇది అత్ర సూత్రమస్తి. ఏతస్య సూత్రస్య బహవః అపవాదాః సంతి, ఎక్సెప్షన్స్, బహవః అపవాదాః ఏతస్య సూత్రస్య వర్తంతే. అతః యథా భవతా పృష్టం నమస్కరోతి ఇది కిమర్థం భవతి, నమస్కరోతి ఇత్యత్ర అపవాదః అస్తి. నమస్పురతోర్గత్యోః ఇది కించిత్ సూత్రం వర్తతే. యది యది నమశ్శబ్దః వర్తతే తర్హి అయం నియమః న ప్రవర్తతే తత్ర. తత్ర విసర్గస్య స్థానే సకారః ఏవ భవతి. అతః నమస్కరోతి, ఏవం ప్రాయః పురస్కరోతి ఇది శబ్దః శృతః, పురస్కార పురస్కారః పురస్కరోతి ఇది శబ్దః శృతః స్యాత్. తత్రాపి అస్య నియమస్య అన్వయః నాస్తి, తత్ర సకారః ఏవ ప్రవర్తతే. అతః నమస్కరోతి నమస్ కరోతి ఏవం పురస్కరోతి ఇత్యాదౌ సకారః ఏవ. ఇది భవంతః ఏతాన్ అపవాదాన్ ద్రష్టుం ఇచ్చంతి తర్హి సిద్ధాంతకౌముద్యామపి ద్రష్టుం శక్నువంతి. అత్ర విసర్గసంధి ప్రకరణే ఏతే అపవాదాః వర్తంతే. సిద్ధాంతకౌముద్యాః విసర్గసంధి ప్రకరణే ఏతే అపవాదాః లిఖితాః. అథవా అష్టాధ్యాయమపి ద్రష్టుం శక్యతే. ఇదం సూత్రం తత్ర అష్టమాధ్యాయస్య తృతీయ పాదస్య చతుర్వింశతితమం సూత్రం. నమస్పురసోర్గత్యోః ఇది తస్మాత్ పరం, అత్ర తస్మాత్ పూర్వమపి వసతః నిమిషం ఎయిట్ మర్జయామి, ఎయిట్ త్రీ థర్టీ ఎయిట్ తహ ఏవ ఆరభ్యతే అపవాదాః. ఎయిట్ త్రీ థర్టీ ఎయిట్ తహ ఏతస్య కుప్పోః ఇది కుప్పోః కః పౌచ ఇది నియమః ఇది సూత్రమస్తి. తస్య అపవాదాః ఇతః ఆరభ్యంతే. ఎయిట్ త్రీ థర్టీ ఎయిట్ తహ అపవాదాః సంతి, బహవః అపవాదాః వర్తంతే. ఎయిట్ త్రీ ఫోర్టీ సెవెన్ పర్యంతం అపవాదాః సంతి అష్టాధ్యాయాం. ఎయిట్ త్రీ థర్టీ ఎయిట్ తహ ఎయిట్ త్రీ ఫోర్టీ సెవెన్ పర్యంతం ఏతస్య అపవాదాః, కుప్పోః కః పౌచ ఇత్యస్య అపవాదాః సంతి. అస్తు, అతః తత్ర అపవాదాన్ ద్రష్టుం శక్నువంతి. ఏవంచ యథా పృష్టం నమస్కరోతి ఇది ఏకం ఉదాహరణం. ఏవం బహుషు స్థానేషు ఏతస్య నియమస్య అన్వయః న భవతి. తాన్ నియమాన్ అష్టాధ్యాయాం ద్రష్టుం శక్నువంతి అథవా సిద్ధాంతకౌముద్యాః విసర్గసంధిప్రకరణే ద్రష్టుం శక్నువంతి. అస్తు, ఉత్తమం. తతః జిహ్వామూలీయ ఉపధ్మానీయ, ఉచ్చారణే నిత్యం వా కంపల్సరీ, ఇజెంట్ ఇట్ కంపల్సరీ ఇత్యస్య వికల్పేన ఏవ. కింటు అస్మాభిః సామాన్యతః జిహ్వామూలీయః ఉపధ్మానీయః ఉచార్యతే. విసర్గస్య ఉచ్చారణం తత్ర కృష్టం ఇతి భాతి. కింటు నియమానుసారం పాణినేః సూత్రానుసారం తు ఉపధ్మానీయః జిహ్వామూలీయః వా వికల్పేన ప్రవర్తతే. పాణినిన నిత్యమితి నోక్తం, అస్మాభిః నిత్యం ప్రయుజ్యతే, ఉచ్చారణ సౌలభ్యం తత్ర వర్తతే. అతః కుప్పోః కః పౌచ इति सूत्रम यदि पश्यन्ति गुप्पोः कप्पोः च सूत्र संख्या अस्ति 8 3 37 सी भवन्तः अत्र यू कैन सी द कनेक्शन दिस इज 8 3 37 This is the general rule, kuppoh kappocha. And from 38 onwards, there are exceptions. And I listed the exceptions up to 47. So this rule, by this rule, upadhma jikvamuli upadhmaniya. Jikvamuli upadhmaniyo bhavataha. Visargaha api anena sutrena vidhiyate. Ataha pakshe jikvamuli upadhmaniyo, pakshe visargaha. Even the nitya जिह्वामूलीयः उपध्वानीयः वा नित्यः न सूत्रानुसारम् अस्माभिः नित्यतया उच्चार्यते रेफस्य स्थाने इति वदामः किल नाम कुत्र सो ऐ डिडन्ट् गेट् द क्वश्चन् प्रसाद्जी पुनः कस्मिन् उदाहरणे इति वदति चेत् सौलभ्यं भवति रेफस्य स्थाने वदामः अग्रे किमपि लिखितमस्ति वा भवान् विसर्गस्य स्थाने इति किमर्थं वदति कस्मिन् उदाहरणे महोदय प्रसाद्जि किञ्चित् उदाहरणं दर्शय लिखतु अहं विवरणं करोमि ततः यद्यपि लेखने विकल्पः भवेत् उच्चारणे तु नित्यम् एवं किम् उच्चारणे नित्यम् इति यथा इदानीं मया उक्तम् उच्चारणे नित्यम् इति पाणिनिना तु नोक्तम् सूत्रं तु नास्ति लेखने विकल्पः उच्चारणे नित्यम् इति तादृशसूत्रं तु नास्ति अतः अस्माभिः सौलभ्यम् उच्चारणे तत्र जिह्वामूली उपध्वानीयः उच्चारणे सौलभ्यमस्ति अतः उच्चार्यते तत्र कोऽपि नियमः नास्ति नित्यम् इति Okay, please explain the sha or sha once again, sir. Okay, this is, I think, etasya vishaye punah vivaranam icchanti. Atra sha, sha, sa, karvaraneshu ete varanaha api santi. Tatra eteshu varaneshu pareshu. विसर्गः विसर्गात् परं सकारः विसर्गात् परं षकारः विसर्गात् परं सकारः एतेषु परेषु किं भवति इति चेत् विसर्गस्य स्थाने सकारः भवति षकारे परे सकारे परे विसर्गस्य स्थाने सकारः अत्रापि विसर्गस्य स्थाने सकारः अत्रापि विसर्गस्य स्थाने सकारः किन्तु सकारकरणानन्तरं पुनः सन्धिः भवितुमर्हति हलसन्धिः षकारे परे षकारे च परे हल्सन्धिः का सन्धिः अस्माभिः हल्सन्धिप्रकरणे स्तोस्तु नास्तुः ष्टु नाष्टुः इति सूत्रद्वयम् अधीतं स्तुत्वं ष्टुत्वम् इति सकारात् षकारे परे स्तुत्वं प्रवर्तते विसर्गस्य स्थाने सकारः आदौ ततः यदा सकारः आगतः सकारात् शकारे परे स्तुत्वं प्रवर्तते अतः श्वेतशङ्खः स्तुत्वमत्र किन्तु सकारः एव विकल्पेन इट् इस् आप्शनल् विसर्गस्य स्थाने सकारः इस् नाट् कम्पल्सरि इट् इस् एन् आप्शनल् रूल् देर्फोर् यदा सकारः नास्ति तदा विसर्गः एव अतः अत्र रूपद्वयं लिखितं मया ऐ हेव् रिटन् टु फार्म् बिकास् दिस् सकार इट्सेल्फ् इस् आप्शनल् सो वेन् सकार इस् नाट् अप्लैड् तदा श्वेतः विसर्गः एव अस्ति श्वेतः शङ्खः यदा सकारः क्रियते तदा स्तुत्वं प्रवर्तते तस्मात् श्वेतशङ्खः इति रूपम् एवं द्वितीय उदाहरणे अत्र विसर्गात् परं षकारः मूर्धन्यः षकारः अस्ति आदौ सकारः सकारे कृते ष्टुत्वम् अत्र लिखितमस्ति मया ष्टुत्वं ष्टुत्वं प्रवर्तते अतः बालषष्ठः इति रूपं किन्तु सकारः एव विकल्पेन यदा सकारः न कृतः तदा विसर्गस्य विसर्गः एव बालः षष्ठः इति रूपम्। एवञ्च सकारे कृते बालषष्ठः इति रूपम्। सकारः न कृतः नाम विसर्गस्य विसर्गः एव बालः षष्ठः। सो वेन् श ष स follows visarga, then two forms are possible. Because here sakara is optional. Then manaha sahate, manas sahate, manas sahate, or manaha sahate. So I will show the rules also after explaining, after this I will show Paninian rules also. Actually, Panini says here visarga is optional. Therefore, when the visarga is not applied, then sakara. So visarga will be replaced with sakara. But at the end, so there are two forms are possible. Either visarga gets sakara or visarga gets sthane visarga hai eva. Okay. Yeah. Astu. इन् बाला बालस्तरति मनश्चञ्चलम् एक्सेट्रा इस् दिस् सन्धि मेण्डेटरी। एस् ऐ मेन्शन् सन्धि ओन्ली इन् समास सन्धि इस् मेण्डेटरी। सो बालस्तरति आर् मनश्चञ्चलम् इस् नाट् समास, अतः सन्धिः अत्र न नित्यः। मनः चञ्चलं बालः तरति इति प्रयोगः अपि भवति। सन्धिः विवक्षितः चेत् सन्धिः प्रवर्तते, सन्धिः न विवक्षितः चेत् सन्धिः न भवति। यः प्रयोगं करति तस्य इच्छाम् अवलम्ब्य सन्धिः भवति। समासे तु सन्धिः नित्यः, तत्र इच्छाम् अवलम्ब्य सन्धिः न, अन्यत्र सन्धिः नित्यः न। प्रथमम् अत्र विद्यमानप्रश्नान् प्रश्नानाम् उत्तरम् उक्त्वा ततः परं ये हस्तम् उद्धृतवन्तः तेषां प्रश्नानाम् उत्तरं वदिष्यामि। शिशु रोदिति सौण्ड्स् लैक् द्विवचनं, यस्, बिकास् दीर्घः अस्ति शिशुः शिशू, किन्तु रोदिति इति एकवचनमस्ति अतः द्विवचनं भवितुं नार्हति, किन्तु रेफः वर्तते इति कारणात् दीर्घः अस्ति। अतः प्राचीनग्रन्थानां पठनकाले अस्माकं भ्रमः भवितुमर्हति, अतः प्राचीनग्रन्थेषु सन्धिः भवत्येव। इदानीन्तनसंस्कृतपुस्तकेषु सन्धिः न भवति, किन्तु प्राचीनग्रन्थेषु, उदाहरणार्थं भाष्यं पठन्ति, शाङ्करभाष्यम् अथवा काव्यं पठन्ति, तत्र सन्धिः भवत्येव। अतः तत्र एतादृशस्थानेषु अस्माभिः विचिन्त्य सन्धिविभागः करणीयः। शिशु द्विवचनम् इत्यपि कश्चन वदेत्, किन्तु रोदिति इति अग्रे रेफः अस्ति अतः दीर्घः जातः, अतः शिशुः रोदिति इत्येव विभागः। मनसः शङ्का मनश्शङ्का वा, अस्य समस्तपदस्य उच्चारणकाले विसर्गस्य स्पष्टम् उच्चारणं करणीयं वा। उत्तमप्रश्नः। मनसः शङ्का इत्यर्थे समासः मनश्शङ्का मनः शङ्का। प्रायः उच्चारणे अस्माकं सौलभ्यं मनश्शङ्का इत्यत्र अस्ति, किन्तु पाणिनेः नियमानुसारम् अत्र रूपद्वयं भवितुमर्हति, विसर्गः अपि भवितुमर्हति। किन्तु विसर्गः चेत् स्पष्टतया विसर्गः उच्चारणीयः भवति, मनः शङ्का इति, तथा उच्चारणं किञ्चित् क्लेशेन उच्चारणीयं भवति। मनश्शङ्का इति उच्चारणे सौलभ्यं, किन्तु नियमानुसारं तु रूपद्वयम् अस्ति, पाणिनेः सूत्रानुसारं रूपद्वयं भवितुमर्हति। तिरस्करोति तु तावदेव, सत्यं, तिरस्करोति इत्यत्र अपि सकारः एव भवति, तिरस्, किन्तु रूपद्वयमस्ति। अकार्डिङ्ग् टु पाणिनीस् रूल् ఇట్ ఈస్ సకార ఇస్ ఆప్షనల్. తిరస్కరోతి ఆర్ తిరహకరోత్. తిరహకరోతి మీన్స్ తిరహకరో ఇస్ కుప్పో కఫ్పోచ్ ఇస్ ఆల్సో పాసిబుల్. ఇట్ మీన్స్ జిహ్వామూలియా ఇస్ ఆల్సో పాసిబుల్ ఆప్షనల్ ఇన్ తిరస్కరోతి. బట్ జనరలీ వీ యూస్ సకార ఓన్లీ తిరస్కరోతి. ఓకే, సో తిరసహ అన్యతరస్యం పాణినీసే తిరసహ అన్యతరస్యం. సో అన్యతరస్యం మీన్స్ ఆప్షనల్. సో జిహ్వామూలియం ఉపధ్మానీయం వేదే సదా ఉచ్చారంతే. ఎస్, వేదే సర్వదా జిహ్వామూలియం ఉపధ్మానీయం వేదే సర్వదా ఉచ్చారంతే. వేదోచ్చారణ విషయే తత్ పరంపరాయ ప్రమాణం తస్మిన్ తస్మిన్ వేదే యథా అత్ర ఉచ్చారణం పరంపరాయాం క్రియతే తద్వదేవ అస్మాభిః ఉచ్చారణీయం భవతి. అతః తత్ర ఏతే వికల్పాః న యోజనీయాః. ప్రసాద్ మహోదయస్య కశ్చన ప్రశ్నః అస్తి. విసర్గస్య స్థానే ఇతి కిమర్థం వదతి? ఏతేషు చిత్రేషు విసర్గస్య స్థానే ఇత్యుక్తం కిమర్థం వదతి ఇది చేత్, ఖరి అత్ర ఖరిపరే ఇది మయా ఉక్తం. ఖరిపరే విసర్గస్య స్థానే కార్యం ఇది. కిమర్థం విసర్గస్య స్థానే కార్యం ఇది మయా ఉచ్యతే ఇది చేత, ఖరిపరే సర్వదాపి సకారస్య రేఫస్య విసర్గః భవతి. ఖరిపరే సర్వదాపి రేఫస్య విసర్గః భవతి. అత్ర పాణినేః సూత్రమస్తి ఖరవసానయోః విసర్జనీయః. అత్ర ద్రష్టుం శక్నువంతి ఖరవసానయోః, ఖరి ఖర్ ఇత్యేవ ఆరభ్యతే సూత్రం. ఖరిపరే సర్వదాపి రేఫస్య స్థానే విసర్గః. ఖరవసానయోః ఇతి సూత్రం ఆరభ్యతే. ఖరవసానయోః విసర్జనీయః, అతః మయా విసర్గస్య స్థానే ఏతాని కార్యాణి భవంతి ఇతి ఉచ్యమానం అస్తి. అతః ఖరవసానయోః విసర్జనీయః ఇతనేన ఆదౌ రేఫస్య స్థానే విసర్గః, తతః ఏతాని సూత్రాణి ప్రవర్తంతే. భవతాపి లిఖితమస్తి ప్రసాద్ కర్వసాని విసర్జనీయః ఇతి సూత్రేణ ఇతి మన్యే ఇతి. సత్యం సమ్యక్. ఇహ దేవాః ఇహ దేవాయ ఇహ ఆర్ దేవా ఇహ. దేవా ఇహ ఇత్యేవ బట్ తద అత్ర క్రమః పాణినేః క్రమః అస్తి. So actually, the if we follow the Panini's krama, then it is deva first. We have to write devas iha, then sakarasya sthane repa, devar iha, then repasya sthane yakara, devai iha, tataha yakarasya lopaha, deva iha. But since lopa is optional, you can also write deva iha. Both forms are possible, but here I didn't show all those rules, therefore I just wrote repasya lopaha iti. Samanyatah prachina granthesu lopaha eva kriyate. So generally you will find deva iha, you won't find deva iha. Yakara saitam rupam na drishyate, sarvadapi lopaha eva drishyate. Atah maya atra chitre api, even in slide I wrote lopa only. Kada vikalpena iti niyamaha astiva. Vikalpasya vishaye niyamaha nasti. Vivaksham apekshate iti uchyate vyakarane. Vivaksha vaktum iccha vivaksha. Yaha vadati tasya iccham avalambya. Arthat prayoktuhu iccham avalambya. Tatra niyamanam anvayah bhavati. Kintu prachina పుస్తకేషు ప్రాచీన గ్రంథేషు సర్వత్ర అత్ర వికల్పః అస్తి చేదపి నియమానాం అన్వయం కుర్వంతి. ఉదాహరణార్థం వక్తవ్యం చేత్ సంధి వికల్పేన, సంధి కరణీయః ఏవ ఇతి నియమః నాస్తి, తత్ర అస్తి ఇతి విభజ్య వక్తుం శక్యతే. కింతు యది కశ్చన నియమః ప్రవర్తయితుం శక్యః తర్హి తత్ర తస్య నియమస్య ప్రవర్తనం కురువంత్యేవ ప్రాచీన గ్రంథేషు. తత్ర అస్తి ఇది కదాపి న లిఖంతి, తత్రాస్తి ఇత్యేవ లిఖంతి. యద్యపి అత్ర వికల్పేన సంధి కరణీయ ఏవ ఇది నాస్తి, तथापि प्राचीनग्रन्थेषु यत्र यत्र नियमानाम् अन्वयः शक्यते तत्र नियमानाम् अन्वयं कृत्वा एव लिखन्ति. किन्तु इदानीन्तनग्रन्थेषु कथापुस्तकानि स्युः अथवा लेखनानि स्युः तत्र नियमानां यदि विकल्पः तर्हि नियमानाम् अन्वयं न कुर्वन्ति. नियमः कोऽपि नास्ति किन्तु एवं प्राचीनग्रन्थेषु अन्वयः दृश्यते, आधुनिकग्रन्थेषु अन्वयः न दृश्यते. अतः लेखकानाम् इच्छामवलम्ब्य, किन्तु सन्धिः क्रियते चेत् अत्र कष्टं भवति इति इदानीं जनाः चिन्तयन्ति. अतः ये पठन्ति तेषां सन्धिविभागः कथं करणीयः इति ज्ञानं न स्यात्. अतः सन्धिम् अकृत्वा एव लिखन्ति. एवम् अन्येषां नियमानां विषयेपि समस्तपदे अन्तर्गतस्यापि विसर्गस्य स्पष्टम् उच्चारणं करणीयं वा यथा मनःशक्तिः. सत्यं, यदि भवता विसर्गः इष्टः, अत्र रूपद्वयमस्ति, एकस्मिन् रूपे विसर्गः भवितुमर्हति, अपरं रूपं तु शकारः. किं रूपं प्रयोक्तव्यम् इति वक्तुः इच्छा, यः प्रयोगं करोति तस्य इच्छामवलम्ब्य. यदि भवान् शकारमेव उच्चारयितुम् इच्छति तदा श्वेतशङ्खः अथवा मनःशक्तिः इत्येव रूपं, न विसर्गमेव उच्चारयितुम् इच्छति तर्हि विसर्गः उच्चारणीयः एव. यदि विसर्गम् उच्चारयितुम् इच्छति तर्हि विसर्गः उच्चारणीयः एव, तदा मनः शक्तिः इत्येव प्रयोक्तव्यं. किन्तु मनः शक्तिः इत्येव प्रयोक्तव्यम् इति नियमः नास्ति, बिकास् इट् इस् आप्शनल्, दिस् रूल् इट्सेल्फ इस् आप्शनल्. अतः शकारस्य उच्चारणं भवितुम् अर्हत्येव, मनःशक्तिः इति प्रयोगः शक्यते. यतः किं रूपं प्रयोक्तव्यम् इति प्रयोक्तुः इच्छा, रूपद्वयम् अस्ति इति केवलं सूत्रेण प्रदर्श्यते. रूपद्वयम् अस्ति इत्येव अष्टाध्याय्यां सूत्रेण प्रदर्श्यते. किं रूपं प्रयोक्तव्यम् इत्यत्र तु अष्टाध्याय्यां कोऽपि नियमः नास्ति, तत् वक्तुः इच्छाम् अवलम्ब्य यस्य कस्यापि रूपस्य प्रयोगः भवितुम् अर्हति. ओके, श्वेतशङ्ख, श्वेतः शङ्खः समस्तपदं नास्ति, श्वेतः शङ्खः इति विभज्यापि प्रयोगः शक्यते. ओके, देन् प्रश्नः कदा विकल्पेन कर्तव्यं, सो ऐ आन्सर्ड् दट् क्वश्चन्. अवसानं, वाट् डस् इट् मीन्? अवसानं वर्णानाम् अभावः. अवसानमिति पाणिनेः संज्ञा, अवसान इस् टेक्निकल् टर्म् इन् अष्टाध्यायी. अवसानम् इत्यस्य वर्णानाम् अभावः इत्यर्थः. यदि कश्चन वर्णः नास्ति, फार् एक्साम्पल् बाल इति किञ्चित् प्रातिपदिकम् अस्ति, अकारान्तं, तस्य प्रथमाविभक्तेः एकवचने सु प्रत्ययः भवति, तदा किं रूपं बालस् इति जायते. देन् बै अनदर् रूल् इट् बिकम्स् बालर्. सकारस्य स्थाने रेफः, बालर्. नौ रेफात् परं कश्चन वर्णः नास्ति, रेफात् परं कश्चन वर्णः नास्ति, इदमेव अवसानम्, अभावः, वर्णानाम् अभावः एव अवसानम्. एवं यदा अवसानं वर्तते, अवसाने परे रेफस्य विसर्गः भवति, अतः बालः इति रूपं सिद्ध्यति. बालः अवसाने परे. एवं खरिपरे अपि रेफस्य विसर्गः भवति. एतेषु उदाहरणेषु खरिपरे विसर्गः अस्ति. In all these examples, खरिपरे विसर्गः अस्ति. खरिपरे रेफस्य विसर्गः भवति, तथा च अवसाने परे अपि रेफस्य विसर्गः भवति. एवञ्च अवसानम् इति वर्णानाम् अभावः, वर्णानाम् अभावस्य विरामः अवसानम् इति पाणिनेः सूत्रम्. Mm-hmm. अवग्रहः अपि सर्वदा न क्रियते, तत्र नियमः न वा इति प्रश्नः वर्तते. अवग्रहविषये पाणिनिना किमपि न उक्तम्, पाणिनेः किञ्चित् सूत्रं नास्ति अवग्रहस्य विषये, किन्तु अवगमनसौलभ्याय लेखनपरम्परायाम् अस्ति. अवग्रह लेखकाः लिखन्ति, एवञ्च अत्र अकारः अस्ति उत आकारः अस्ति इति ज्ञानं स्पष्टं भवतु इति धिया लिप्यामस्ति, किन्तु व्याकरणसूत्रम् एतद्विषये किमपि नास्ति. इदं लिपिसम्बद्धनियमः, अतः व्याकरणसम्बद्धनियमः नास्ति अत्र. एवञ्च केचन लेखकाः अवग्रहं लिखन्ति, केचन लेखकाः अवग्रहं न लिखन्ति. एतद्विषये पाणिनिना कापि चर्चा न क्रियते अष्टाध्याय्याम्. अवग्रहः सो लिपिसम्बद्धः कश्चन नियमः अयम्. अस्तु, हौ इट् ईस् शिरोवेदना. शिरोवेदना जस्ट् अहं दर्शयामि. शिरोवेदना अत्र कः वर्णः अस्ति? वकारः अस्ति. वकारः अस्ति चेत् इदं चित्रं द्रष्टव्यं भवति. वकारः अत्र अस्ति, अस्मिन् चित्रे अस्ति वकारः. सो भवान् पृच्छति शिरोवेदना, एवञ्च शिरस् शब्दस्य विषये पृच्छति. शिरस् एवञ्च सकारः एवम् आसीत्, शिरस् इति आसीत्. शिरस् ततः परं सकारस्य स्थाने रेफः शिरर् शिरर् वेदना इति जायते. इदानीं रेफात् पूर्वम् अकारः अस्ति, एवञ्च रेफात् पूर्वम् अकारः, तस्मात् परं वकारः शिरर् वेदना. किं भवति? उकारः भवति, रेफस्य स्थाने उकारः. अतः शिर उ वेदना, शिर उ वेदना. इदानीं गुणसन्धिः शिरोवेदना इति रूपम्. अस्तु कुमार्जि, केचन हस्तम् उद्धृतवन्तः इति भाति. वेङ्कटेश्वरञ्जि
नमस्ते.
नमस्ते
सर्, दिस् इस् रिगार्डिङ्ग् दट् इक्वामूल्य अण्ड् उपद्मानि. Sometimes in Vedic teaching, they write with the Visarga, but pronounce it with Upadmani or Jekhwani. That is a confusion. But okay, they don't write it in inverted half moon.
Because of this, what happens, the problem with the typing also. In some fonts, you won't find this chinha. Therefore, it's difficult to type this half moon chinha. They write, they type Visarga, then they pronounce Jikvamulya or Upadmaniya. Because in many fonts, you won't find this chinna also.
Right.
There's also another problem. Okay. Yeah.
But we can
Without in Vedic tradition, so the tradition is, we have to follow the tradition. So if in tradition is Jikvamulya or Upadmaniya is pronounced, then we have to follow that. No other option.
Okay.
So their Paninian's rules are not applicable. Means they are applicable means we have to follow the tradition itself. Because all Paninian's rules are optional in Veda.
Okay.
It means we have to follow the tradition in Vedic pronunciation. So Guru Pramanam Tatra. Guru and Pratishakya Granthas are there. So that is Pramana.
नमस्ते. टङ्कापि उच्चारणे सदा काकः कृष्णः पिकः कृष्णः इति ह इह् इह् तत् शब्देन सह एव उच्चार्यते सदा इदमेव पठितवान् बाल्ये पाककृष्णः पुनः को भेदो कयोः काले सम्प्रकृष्णः टङ्कने टङ्कने श्रममस्ति तथापि उच्चारणे जिह्वामूलीयम् उपद्मानीयं तेन सह एव उच्चार्यते इत्थमेव उच्चारणं कर्तव्यम् इति नियमः वा इति एव अहं पृष्टवान्
एवमेव तदेव पाणिनेः सूत्रानुसारं जिह्वामूलीयः उपद्मानीयः वा नित्यः न सूत्रानुसारम् अतः जिह्वामूलीयः उपद्मानीयः वा उच्चारणीयः एव इति सूत्रं तु नास्ति किन्तु उच्चारणसौलभ्यं
परन्तु
तत्र अस्ति अतः उच्चार्यते
श्लोकपठने श्लोकानां पठने जिह्वामूलीयम् उपद्मानीयं तेन सह एव अहं श्रुतवान्
एवं पुनः एवं तत्र श्लोकानाम् उच्चारणे
परन्तु नियमः नास्ति
नियमः नास्ति पाणिनेः नियमस्तु नास्ति पुनः श्लोकानाम् उच्चारणे कश्चन रागः अथवा अत्र यतिः भवति कुत्र स्थगनं भवेत् इदानीम् अनुष्टुप् छन्दः चेत् उच्चारणक्रमः कश्चन भिन्नः भवति अन्यत् छन्दः चेत् तत्र उच्चारणक्रमः कश्चन भिन्नः भवति यदि मध्ये वयं विसर्गस्य उच्चारणं कुर्मः तर्हि यतिः दत्ता इव भाति मध्ये किमपि स्थगनं कृतम् इति भाति अतः तत्र जिह्वामूलीयस्य उपध्मानस्य उच्चारणं क्रियते चेत् स्थगनं कृतम् इति न भाति तदेव प्रयोग श्रोतॄणां स्पष्टं भवति उच्चारणं
धन्यवादः
अस्तु तर्हि अस्तु तर्हि समयः जातः श्वः अपि पाठः अस्ति अहं सन्धिप्रकरणस्य समाप्तिपर्यन्तं विसर्गसन्धिप्रकरणस्य सूत्राणि प्रायः समाप्तानि द्वित्री अत्र द्वितीयनियमाः सन्ति ततः परम् अष्टाध्याय्यां यानि सूत्राणि सन्ति तानि सूत्राणि तेषाम् अर्थं च दर्शयामि च एतस्य समाप्तिपर्यन्तमपि अहं पाठं करोमि अस्मिन् सप्ताहे यतः ततः परं दीपावलिः अस्ति पुनः विरामः भवति अतः प्रतिदिनं पाठं करोमि अतः श्वः अपि पाठः अस्ति अस्तु पुनर्मिलामः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्।